न भूमिर्न तोयम् न तेजो न वायुः न खं नेन्द्रियं वा न तेषां समूहः अनेकान्तिकत्वात् सुषुप्तैकसिद्धः तदेको वशिष्ठः शिवः केवलोऽहम् तदेको वशिष्ठः शिवः केवलोऽहम् न वर्णानवर्णाश्रमाचार धर्मो न मे धारणा ध्यानयोगादयोऽपि अनात्माश्रयोऽहं ममाध्यासहानात् तदेको वशिष्ठः शिवः केवलोऽहम् तदेको वशिष्ठः शिवः केवलोऽहम् न माता पिता वा न देवा न लोका न वेदा न यज्ञा न तीर्थं ब्रुवन्ति सुषुप्तौ निरस्तातिशो तदेको वशिष्ठः शिवः केवलोऽहम् तदेको वशिष्ठः शिवः केवलोऽहम् न सांख्यं न शैवं न तत्पञ्चरात्रं न जैनं न मीमांसकादिर्मतं वा विशिष्टानुभूत्या विशुद्धात्मकत्वात् तदेको वशिष्ठः शिवः केवलोऽहम् तदेको वशिष्ठः शिवः केवलोऽहम् न चोर्ध्वं न चार्दो न चान्तर्न बाह्यं न मध्यं न तिर्यं न पूर्वापराधिक् वियद्व्यापकत्वादकण्डेकरूपः तदेको वशिष्ठः शिवः केवलोऽहम् तदेको वशिष्ठः शिवः केवलोऽहम् न शुक्लं न कृष्णं न रक्तं न पीतं न कुब्जं न पीनं न ह्रस्वं न दीर्घम् अरूपं तथा ज्योतिराकारकत्वात् तदेको वशिष्ठः शिवः केवलोऽहम् तदेको वशिष्ठः शिवः केवलोऽहम् न शास्ता न शास्त्रं न शिष्यो न शिक्षा न च त्वं न चाहं न चायं प्रपञ्चः स्वरूपावबोधो विकल्पासहिष्णुः तदेको वशिष्ठः शिवः केवलोऽहम् तदेको वशिष्ठः शिवः केवलोऽहम् न जाग्रन्न मे स्वप्न को वा सुषुप्तिः न विश्वो न वा तैजस प्राज्ञ को वा अविद्यात्मकत्वात्रयाणां तुरीय तदेको वशिष्ठः शिवः केवलोऽहम् तदेको वशिष्ठः शिवः केवलोऽहम् अपि व्यापकत्वादि तत्त्वप्रयोगात् स्वतः सिद्धभावादनन्याशयत्वात् जगत्तुच्चमेतत् समस्तं तदन्यत् तदेको वशिष्ठः शिवः केवलोऽहम् तदेको वशिष्ठः शिवः केवलोऽहम् न चैकं तदन्यत् द्वितीयं कुतः स्यात् न च केवलत्वं न चाकेवलत्वम् न शून्यं न चाशून्यमद्वैतकत्वात् कथं सर्ववेदान्तसिद्धब्रवीमि कथं सर्ववेदान्तसिद्धं